त्वं ग्रामदेवी नगरादिदेवी वनादिदेवी गृहदेवता च सम्पूज्यते भक्त जनैश्च यया सा त्वमेवासि महानुभावे यत्यश्रुतं दृष्टमपि स्मृतं च तत्त्वतीयं हि कलांशजालं न किञ्चनास्त्येव शिवे त्वदन्यत् भूयोऽपि मूल प्रकृते नमस्ते।